दर्पणमार्जनं भवमहादावाग्निनिर्वापणं श्रेयः कैरवचन्द्रिका वितरणं विद्यावदूजीवनम् आनन्दाम्बुदिवरधनं प्रतिपदं पूर्णामृतास्वादनम् सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् नाम्नामकारि बहुधा निज सर्वशक्ति तत्रार्पितानियमितस्मरणेन कालः एतादृशी तव कृपा भगवन् ममापि दुर्दैवमीदृशं विहाजनिनानुरागः तृणादपि सुनीचेण तरोरीव सहिष्णुना अमानिनमानदेन कीर्तनीयसराहरे न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुके त्वयि अयि नन्ददनुज किङ्करं पतितं मां विषमे भवाम्बुदौ कृपया तव पादपङ्कज स्थितधूलिसदृशं विचिन्तय नयनं गलद अश्रुधारय वदनं गद्गदरुद्धया गिरा पुलकैः निक्तं वपुः कदा तव नाम ग्रहणे भविष्यति युगायितं निमेषेण चक्षुषा प्रावृषायितं शून्यायितं जगत्सर्वं गोविन्दविरहेण मे आश्लिष्यवापादरतां विनष्टु माम् अदर्शनमरमहतां करोतु वा यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः हरे कृष्ण 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 हरे 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 राम 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 हरे हरे श्री चैतन्य शिक्षाष्टकं की